एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। मन्त्री परिषदः उपवेशेन नेपाल प्रहरिणः महानिरीक्षक पदे दीपक थापा इत्यस्य पदोन्नतिः विहिता अस्ति। बालुवाचारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन मन्त्री परिषदः उपवेशेन थापा इत्यमुम् नेपाल प्रहरिणः एकत्रिंशत्तमे महानिरीक्षक पदे पदोन्नतिम् विधातुम् निर्णीतमस्ति। महानिरीक्षकः थापा अद्य कार्यभारम् प्रारभते। महानिरीक्षकः थापा द्वापञ्चाशदुत्तर द्विसहस्रतम विक्रमाब्दस्य भाद्रमासस्य एकोनविंशात् दिवसात् प्रहरी सेवायाम् प्रविष्टवान् आसीत्। त्रिंशत्तमः महानिरीक्षकः वसन्तबहादुर कुंवरः ह्य सेवानिवृत्तः सञ्जातः आसीत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशेन सुशासन प्रवर्धन सामाजिक सेवा प्रवाह सम्बद्धान् कतिचित् नेपालाधिनियमान् संशोधयितुम् निर्मितम् एतद् विक्रमवर्षीयम् विधेयकम् मतविभाजनस्य प्रक्रियातः बहुमतेन पारितीकृतम् वर्तते। मतविभाजने विधेयकस्य पारितीकरणस्य पक्षे 96 विपक्षे च 49 मतानि व्यक्तानि आसन्। मतविभाजन प्रक्रियायाम् 45% सांसदाः सहभागिता भागिनः आसन्। उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन विधेयकस्य प्रस्तुतेरनुपदमेव प्रतिपक्षस्य 28 सांसदैः उत्थाय मतविभाजनं कर्तुम् अभियाचितम्। तदनन्तरं मतविभाजन प्रक्रियायाः माध्यमेन विधेयकं पारितीकृतम् आसीत्। तत्पूर्वम् उपवेशे विधेयकमाश्रित्य विहितस्य प्रकरणगत विमर्शनस्य क्रमे पृष्टान् प्रश्नान् उत्तरयन् संचार मन्त्री गुरूङ विधेयकम् अतिरिक्तम् स्पष्टम् प्रभावकारी च सम्पाद्य सार्वजनिक सेवा प्रवाहम् अतिरिक्तम् व्यवस्थितम् विधातुम् सांसदैः प्रदत्तानि परामर्शानि सर्वकारेण अनुकूल रूपेण ग्रहीष्यन्ते इति उदैरयत्। सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धान् कतिचित् नेपालाधिनियमान् संशोधयितुम् निर्मिते विधेयके 23(1), 2 संयुक्तञ्चेति कृत्वा समग्रतः 25 संशोधनानि पञ्जीकारितानि आसन्। प्रतिनिधिसभायाः स्तनोपवेशस्य आकस्मिके शून्य विशेषे च समये सांसदैः उत्थापितान् प्रश्नान् उत्तरयता गृहमन्त्रिणा रमेश लेखकेन राज्यकोषे अनावश्यक भारम् अकृत्वा पूर्व विशिष्ट पदाधिकारिभ्य प्रदीयमानस्य सौविध्यस्य सन्दर्भे विधि निर्मास्यमानोऽस्तीति सूचितम् वर्तते। उपवेशे गृहमन्त्री लेखकः सर्वोच्च न्यायालयस्य महालेखा परीक्षक कार्यालयस्य संसदीय समितेस्य निर्देशनम् पालयित्वा विधेर्निर्माणस्य प्रक्रिया अग्रे वर्धिता अस्तीति सूचितवान्। गृहमन्त्री लेखकः पूर्व विशिष्ट पदाधिकारिभिः सर्वकारेण निर्मितस्य विधेः अनुसारेण सेवा सौविध्यानि गृह माणानि आसन्। अतः परं संसदा विधिं निर्माय सेवासौविध्यस्य प्रदानाय पूर्वकार्यं विधीयमानमस्तीति असूचयत्। तदवसरे गृहमन्त्री लेखकः पाथिभरास्थाने केवल कारयानस्य निर्माणस्य विषये आन्दोलनरत पक्षेण उत्थापितान् सामाजिक धार्मिक सांस्कृतिक विषयान् स्थानीय समुदायस्य समस्याश्च सम्बोधयितुं सर्वकारः तत्परोऽस्तीति अवदत्। तत्पूर्वं प्रतिनिधिसभायाः स्तनोपवेशे सांसदः देशे शान्ति सुरक्षायाः प्रभावकारि प्रबन्धनं विधातुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः आसन्। राष्ट्रियसभायाः ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयं तिलगंगा नेत्र विश्वविद्यालय विधेयकं सर्वसम्मत्या पारितीकृतमस्ति। शिक्षा विज्ञान प्रविधि मन्त्रिणा विद्या भट्टराई इत्यनया विधायन व्यवस्थापन समितेः प्रतिवेदनेन सहितं प्रस्तुतं विधेयकमिदं सर्वसम्मत्या पारितीकृतमस्ति। विधेयकमाधृत्य सांसदैः उत्थापितान् प्रश्नान् उत्तरयन्ती मन्त्री भट्टराई नेपालस्य दुर्गमेषु स्थानेषु निवसतां जनानां दृष्टिसम्बद्धायाः समस्यायाः समाधानाय विधेयकमिदम् उपलब्धिपूर्णं भविष्यति इति विश्वासं व्यक्तवती। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रिणा भट्टराई इत्यनया प्रस्तुतं राष्ट्रिय विधि विज्ञान प्रयोगशालायाः स्थापना संचालन सम्बद्धम् एतद् विक्रमवर्षीयं विधेयकं सभया प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषितं वर्तते। विधायन व्यवस्थापन समितेः सभापतिः तुलसा कुमारी दाहालः कोषागारापराध दण्डन सम्बद्धेन गतविक विक्रमवर्षीयेण द्वितीय संशोधन विधेयकेन सह सम्बद्धं विधायन व्यवस्थापन समितेः प्रतिवेदनं सभा समक्षं प्रस्तुतवती। राष्ट्रसभायाः अपरोपवेशः श्व बुधवासरे दिवासपादैकवादने वस्ता। विद्यार्थी संघटनानां द्वन्द्वस्य कारणेन त्रिभुवन विश्वविद्यालयान्तर्गतेषु सप्तदशसु महाविद्यालयेषु निर्धारिते दिने सुवियु नाम्नः स्वतन्त्र विद्यार्थी संघटनस्य निर्वासनं न सम्भवति। त्रिभुवन विश्वविद्यालयान्तर्गतेषु आंगिकेषु सम्बद्धेषु च सर्वेषु महाविद्यालयेषु अद्यतन दिवसाय सुवियु संघटनस्य निर्वासनं निर्धारितमासीत्। त्रिभुवन विश्वविद्यालयस्य आराष्ट्रं द्वाषष्टिः आंगिकः महाविद्यालयः एकसहस्राधिकः सम्बद्धाश्च महाविद्यालयः सन्ति। विद्यार्थी संघटनानां द्वन्द्वस्य कारणेन काष्ठमण्डप उपत्यकायाम् अष्टानां उपत्यकातः बहिस्थाः नवचेति आहत्य सप्तदशानाम् आंगिक महाविद्यालयानां निर्वाचन प्रक्रिया अवरुद्धा अस्तीति त्रिभुवन विश्वविद्यालयेन ज्ञापितं वर्तते। राष्ट्रिय परीक्षा समितेः परीक्षा नियन्त्रण कार्यालयेन अस्य वर्षस्य माध्यमिक शिक्षा परीक्षायाः सम्पूर्णं पूर्वकार्यं प्रपूरितमस्तीति ज्ञापितं वर्तते। परीक्षा नियन्त्रकः नन्दलाल पौडेलः अस्यैव चैत्र मासस्य सप्तम दिवसात् आराष्ट्रं प्रारप्स्यमाणायाः परीक्षायाः सम्पूर्णं पूर्वकार्यं प्रपूरितमस्तीति अज्ञापयत्। समित्या परीक्षायाः कृते प्रश्नपत्राणि अनुक्रमाङ्कः उत्तरपुस्तिकाः अन्यः सामग्र्यश्च प्रत्येकं जनपदेषु प्रापिताः सन्तीति ज्ञापितं वर्तते। अस्य वर्षस्य माध्यमिक शिक्षा परीक्षायां 5,14,000 170 छात्राः सहभागिनो भविष्यन्तीति परीक्षा नियन्त्रकः पौडेलः अज्ञापयत्। कार्यालयेन परीक्षायाः कृते आराष्ट्रं 2,179 परीक्षा केन्द्राणि निर्धारितानि वर्तन्ते। नेकपा एमाले दलस्य सचिवालयोपवेशेन राजतन्त्रस्य प्रत्यावर्तनस्य कोऽपि आधारो नास्तीति निष्कर्षः प्रकाशितोऽस्ति। च्यासलवर्तिनी दल केन्द्रीय कार्यालये ह्य उपविष्टेन एमाले दलस्य सचिवालयोपवेशेन देशम् अलोकतान्त्रिक मार्गे नेतुं जायमानः प्रयासः स्वीकारयोग्यः न सन्तीति उक्त्वा विशेषः प्रस्तावः पारितीकृतोऽस्तीति दलस्य उपमहासचिवः प्रदीप गेवाली अज्ञापयत्। उपवेशेन दलस्य लुम्बिनी प्रदेश समितौ प्रेषितानि 28 नामानि अनुमोदितानि सन्तीति च दलेन ज्ञापितं वर्तते। इति समाचारः।